भगवती विश्वासः। कश्चन ग्रामः आसीत्। ग्रामस्य बहिर्भागे काचित् महिला स्वपुत्रेण सह निवसति स्म। तस्याः पतिः पूर्वम् एव दिवंगतः आसीत्। महिलायाः गृहस्य समीपे महत् वनम् आसीत्। तस्याः पुत्रेण राघवेण गुरुकुलं गन्तव्यं चेत् वनम् अतिक्रम्य एव गन्तव्यं भवति स्म। अनन्यगतिकतया सह वनमार्गेण एव गुरुकुलं गच्छति स्म। एकदा राघवः मातरम् उक्तवान्, अम्ब, प्रतिदिनं मया वनमार्गेण एव गुरुकुलं गन्तव्यम्। मार्गे मम भयं भवति, किं करोमि इति। तदा माता उक्तवती, वत्स, यदि भयं भवति तर्हि गमनसमये हे गोपाल इति उच्चैः आह्वयन् गच्छतु। गोपालः भवता सह गुरुकुलपर्यन्तम् अपि आगच्छति इति। अनन्तरदिने राघवः वनमार्गेण गुरुकुलं प्रति प्रस्थितवान्, परन्तु मध्यमार्गे तस्य भयम् आरब्धम्। तदा सः मातुः वचनं स्मृत्वा हे गोपाल इति उच्चैः आहूतवान्। किञ्चित् समयानन्तरं राघवस्य समवयस्कः कश्चित् बालकः कुतश्चित् तत्र आगतवान्। सः राघवं दृष्ट्वा किमर्थं माम् आहूतवान् इति पृष्टवान्। तदा राघवः, अहम् अतीव भीतः अस्मि, मम माता उक्तवती अस्ति यदा भवान् भीतः भवति तदा गोपालम् आह्वयतु, सः भवता सह आगच्छति इति। अतः अहं भवन्तम् आहूतवान् इति उक्तवान्। गोपालः, भवान् भीतः मा भवतु, अहं प्रतिदिनं भवता सह आगमिष्यामि इति उक्तवान्। तेन सह गुरुकुलपर्यन्तम् आगतवान् अपि। राघवः सायं गृहम् आगत्य मात्रे सर्वं निवेदितवान्। ततः प्रतिदिनं गोपालः राघवेण सह गुरुकुलपर्यन्तं गच्छति स्म। प्रत्यागमनसमये गृहपर्यन्तं तं प्रापय्य गच्छति स्म। गच्छता कालेन राघवगोपालयोः मित्रत्वं प्रवृद्धम्। अत्रानन्तरे राघवस्य गुरोः पुत्रस्य जन्मदिनं सन्निहितम् आसीत्। तदा तस्मिन् गुरुकुले ये छात्राः पठन्ति ते सर्वे अपि गुरुपुत्राय किमपि उपायनं दातुम् इष्टवन्तः। राघवः अपि मातरम् उक्तवान्, अम्ब, आचार्यस्य पुत्रस्य जन्मदिनम् अस्ति, तदर्थं सर्वे किमपि उपायनं यच्छन्ति। मया अपि किमपि दातव्यं खलु इति। माता खेदेन, पुत्र, वयं किं दातुं शक्नुमः, यत् वयं तु निर्धनाः इति उक्तवती। ततः राघवः तूष्णीं शालां प्रस्थितवान्। मार्गे मिलितः गोपालः म्लानवदनं राघवं दृष्ट्वा, भोः मित्र, किम् अभवत्, किमर्थं व्याकुलः अस्ति इति पृष्टवान्। राघवः खेदस्य कारणम् उक्तवान्। तदा गोपालः, भवान् अत्र एव तिष्ठतु, अहम् इदानीम् एव आगच्छामि इत्युक्त्वा कुत्रापि गतवान्। पुनः प्रत्यागमनसमये तस्य हस्ते दध्ना पूरितुं लघुपात्रमासीत्। तत्पात्रं राघवाय दत्त्वा गोपालः, एतत् पात्रं भवतः गुरोः पुत्राय ददातु इति उक्तवान्। तस्मिन् दिने सर्वे अपि छात्राः गुरुपुत्राय स्वेन आनीतम् उपायनं दत्तवन्तः। राघवः अपि दधिपात्रं तस्मै दत्तवान्। अनन्तरं सर्वे भोजनार्थम् उपविष्टवन्तः, परन्तु भोजने सर्वेषां कृते दधि अपर्याप्तम् अभवत्। तदा आचार्यः राघवेण आनीतं दधि स्मृत्वा तत् आनयन्तु इति उक्तवान्। तत् आनीय परिवेषणम् आरब्धवन्तः। परम् अहो आश्चर्यं, यथा यथा तस्मात् पात्रात् दधि स्वीकृतं तथा तथा पुनः तत् पूर्णं भवति स्म। तद्दृष्ट्वा सर्वे अपि विस्मिताः अभवन्। गुरुः राघवम् आहूय, राघव, केन दत्तम् एतत् दधिपात्रम् इति पृष्टवान्। राघवः, एतत् पात्रं वने स्थितः मम स्नेहितः गोपालः दत्तवान् इति उक्तवान्। आश्चर्यचकिताः ते सर्वे अपि वनं गत्वा गोपालम् आहूतवन्तः, परन्तु गोपालः न आगतवान् एव। राघवः अपि उच्चैः गोपाल गोपाल इति आहूतवान्। गोपालः न दृष्टः एव। परं गोपालस्य कण्ठध्वनिः श्रुतः, भो बालकाः, राघवाय दधिपात्रम् अहम् एव दत्तवान् इति सः अशरीरवाण्या उक्तवान्। तत् श्रुत्वा विस्मिताः सर्वे अपि राघवं भृशम् अभिनन्दिनवन्तः।